इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचिका साधना शर्मा। आदौ मुख्यः वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना सम्मेलने उक्तं यत् भारतस्य एक्ट ईस्ट पॉलिसि इति प्रतिवेशी प्रथमनीतिः आसियान देशैः सह सम्बन्धे ऊर्जां गतिं दिशश्च प्रददाति। प्रधानमन्त्री नरेन्द्र मोदी वियन्नचने आसियान भारतस्य पूर्वीय एशिया शिखर सम्मेलने भागं गृह्णाति। गृहमन्त्रिणा अमितशाहेन उद्योगानां स्तरम् आकारं च प्रवर्धयितुं समाहूतमस्ति। अशेषे देशे दुर्गा पूजनोत्सवः धार्मिक हर्षोल्लासेन सह आमान्यते, विशेषतः पूर्वीय भारते। कजाकिस्ताने आस्तानायाम् आयोजितायाम् एशियन टेबल टेनिस स्पर्धा मालिकायाम् भारतीयेन पुरुष दलेन कांस्य पदकम् अधिगतम्। अपि च आईसीसी महिला विंशति विंशति क्षेप चक्रीय क्रिकेट विश्व चषक स्पर्धा मालिकायाम् अद्य शारजाहे ब वर्गीये द्वन्द्वे बांग्लादेशः वेस्ट इंडीज दलेन सह स्पर्धिष्यते। इदानीं वार्ताः विस्तरेण। प्रधानमन्त्री नरेन्द्र मोदी वियन्नचने आसियान भारतस्य पूर्वीय एशिया शिखर सम्मेलने भागं ग्रहीतुं लाओस देशं सम्प्राप्तवान्। भारतीयाः प्रवासिनः श्रीमोदिनः स्वस्नेहं स्वागतं कृतवन्तः। प्रधानमन्त्री नरेन्द्र मोदी लाओस देशस्य द्विदिवसीय यात्रायां वियन्नचनं सम्प्राप्तवान्। प्रधानमन्त्रिणः अनया यात्रया परिणामेन आसियान देशैः सह भारतस्य सम्बन्धाः अधिकं सुदृढाः भविष्यन्ति। लाओस देशस्य गृहमन्त्री विलय वोंगे बौद्धा खामः तस्य स्वागतं कृतवान्। श्रीमान् मोदी भारतीय समुदायेन सह अपि अमिलत्। दक्षिण पूर्वीय एशिया देशानां संघटनानि आसियान अस्य चतुश्चत्वारिंशत्तमं पञ्चचत्वारिंशत्तमं च शिखर सम्मेलनं तदनुगताः अन्यानि च उपवेशनानि यः लाओस देशस्य राजधान्यां वियन्नचने आरब्धानि। उद्घाटन सत्रे लाओस देशस्य राष्ट्रपतिः थाम लोन सिसोलिथः आसियान देशान् शान्तेः स्थिरतायाः सतत विकासस्य च लक्ष्याणां दिशि कार्यं कर्तुम् आहूतवान्। लाओस देशस्य अध्यक्षतायाम् आयोजितेन आसियान सम्मेलनेन सहैव सप्तविंशतितमं आसियान चीन सम्मेलनं भारत आसियान इति तथा पूर्वीय एशिया शिखर सम्मेलन सदृशाः अन्ये कार्यक्रमाः अपि आयोज्यन्ते। प्रधानमन्त्रिणा नरेन्द्र मोदिना सम्मेलने उक्तं यत् भारतस्य एक्ट ईस्ट पॉलिसी इति प्रतिवेशी प्रथम नीतिः आसियान देशैः सह सम्बन्धे ऊर्जां गतिं दिशश्च प्रददाति। असौ सबलं न्यगदत् यत् एकविंशतितम शताब्दी भारत आसियान देशयोः शताब्दी वर्तते। गृहमन्त्रिणा अमितशाहेन उद्योगानां स्तरम् आकारं च प्रवर्धयितुं समाहूतमस्ति। नवदिल्ल्याम् अद्य पीएचडी चैम्बर्स ऑफ कॉमर्स एंड इंडस्ट्री इत्यत्र ऊनविंशत्युत्तर एकशततमं वार्षिकं सत्रं सम्बोधयन् श्रीशाहः उक्तवान् यत् देशस्य उद्योगैः बृहत् स्वप्नाः द्रष्टव्याः, ये हि विश्वस्मिन् विश्वे व्याप्ताः भवेयुः। गृहमन्त्रिणा उक्तं यत् एतादृशान् स्वप्नान् साकारीकर्तुं संघटनानि उद्योगाः च सम्भूय कार्याणि कुर्युः। तेन उक्तं यत् सर्वकारेण 2000-अधिकवर्षपुरातनानाम् औपनिवेशिक विधीनाम् अपसारणं कृत्वा समवायाधिनियमे परिष्कारः अपि कृतः, अपि च ऊनचत्वारिंशत् सहस्राधिकानां नियमानाम् अनुपालनं च सरलीकृतम्।
क्योंकि हमारे गांव में प्रधानमंत्री जी ने 2047 जब देश की आजादी की शताब्दी मनाई जाएगी, भारत पूर्ण विकसित राष्ट्र के रूप में दुनिया के सामने खड़ा है।
अशेषे देशे दुर्गा पूजनोत्सव धार्मिकेन हर्षोल्लासेन सह आमान्यते। पश्चिम बंगाले जनाः दुर्गा पूजन समारोहे सोत्साहं भागं गृह्णन्ति। असम प्रदेशे चतुस्सहस्राधिकानि दुर्गा पूजन स्थलानि निर्मितानि। अस्माकं वार्ताहरैः सूचितं यत् पूजन समितिभिः विभिन्नेषु विषयेषु रचनात्मक रीत्या सन्देशं प्रसारयितुम् अस्थायि दुर्गा पूजन स्थलं सज्जीकृतम्। प्रधानमन्त्री नरेन्द्र मोदी नवरात्रस्य अष्टम दिवसे देव्याः महागौर्याः पूजनं कृतवान्, शुभकामनाश्च प्रदत्तवान्। संस्कृत वार्तायाः संस्करणम् इदम् इदानीम् आकाशवाणीतः प्रसार्यते। समम् एव अयम् कार्यक्रमः आकाशवाण्याः अन्तर्जालपटले www.newsonair.gov.in इत्यत्र अथ न्यूज ऑन एआईआर चलदूरभाषीय तन्त्रांशे अपि उपलब्धो भविष्यति। सूचना प्रसारण मन्त्रिणा अश्विनी वैष्णवेन उक्तं यत् भारतीयं चलचित्रं देशे एकता वर्धने महत्वपूर्णां भूमिकां निरवहत्। श्री वैष्णवः एकस्मिन् लेखे उक्तवान् यत् चलचित्र विविधता भविष्यस्य कथाः एकं भारतं श्रेष्ठं भारतं, एक भारत श्रेष्ठ भारत इति दृष्टेः दृढीकरणस्य शक्ताः माध्यमाः सन्ति। ऋतु विभागेन अरुणाचल प्रदेश महाराष्ट्र क्षेत्रेषु द्विदिवसाभ्यन्तरे तीव्रवृष्टेः संभावना प्रकटिता। विभागानुसारेण अस्मिन् सप्ताहे तमिलनाडु, पुडुचेरी, कराईकल, तटवर्तीय कर्णाटक, दक्षिण आन्तरिक कर्णाटक क्षेत्रेषु च तीव्र वृष्टिः संभाव्यते। ऋतु विभागेन द्वित्र दिवसेषु गुजरात, मध्यप्रदेश, उत्तरप्रदेश, बिहार प्रदेशेषु, महाराष्ट्रस्य च केषुचित् क्षेत्रेषु वायव्य प्रावृट प्रत्यावर्तनस्य संभावना प्रकटिता। कजाकिस्तान अस्तानायाम् आयोजितायाम् एशियन टेबल टेनिस स्पर्धा मालिकायाम् भारतीयेन पुरुष दलेन कांस्य पदकम् अधिगतम्। उपान्त्य चक्रीयायां स्पर्धायाम् अद्य चाइनीज ताइपे दलेन भारतं शून्यं विरुध्य त्रिभिः खेलान्तरालैः पराजितम्। फिनलैंडस्य वांटायाम् आर्कटिक ओपन बैडमिंटन स्पर्धा मालिकायां भारतस्य किरण जॉर्जः लक्ष्य सेनश्च पुरुषाणाम् एकल वर्गे प्राग् उपान्त्य चक्रं संप्रविष्टौ। किरणः गतवासरे विश्वमानांक सूच्यां पञ्चविंशति स्थाने वर्तमान ताइवान देशीय वांग जू वी इत्येतं क्रीडकं त्रयोविंशति एकविंशतिः एकविंशतिः अष्टादश इत्येतैः अंकांतरालैः पराजितवान्। अद्यतने द्वन्द्वे सः इंडोनेशिया देशीयं जुगुनाथन क्रिस्टिनं सम्मुखीकरिष्यति। अपरतः लक्ष्यसेनः ताइवानस्य चौ तिन चेनेन सह स्पर्धिष्यते। आईसीसी महिला विंशति विंशति क्षेप चक्रीय क्रिकेट विश्व चषक स्पर्धा मालिकायाम् अद्य शारजाहे ब वर्गीये द्वन्द्वे बांग्लादेश वेस्ट इंडीज दलेन सह स्पर्धिष्यते। इयं स्पर्धा भारतीय समयानुसारेण सायं सार्ध सप्तवादने आरप्स्यते। गतरात्रौ दुबय्याम् आयोजिते अवर्गीये द्वन्द्वे भारतीय महिला क्रिकेट दलेन श्रीलंका दलं द्विअशीति धावनांकैः पराजित्य ऐतिहासिकः विजयः अधिगतः। अन्ते पुनरेकवारं मुख्याः वार्ताः। प्रधानमन्त्रिणा नरेन्द्र मोदिना सम्मेलने उक्तं यत् भारतस्य एक्ट ईस्ट पॉलिसी इति प्रतिवेशी प्रथमनीतिः आसियान देशैः सह सम्बन्धे ऊर्जां गतिं च प्रददाति। गृहमन्त्रिणा अमितशाहेन उद्योगानां स्तरम् आकारं च प्रवर्धयितुं समाहूतमस्ति। अशेषे देशे दुर्गापूजनोत्सवः धार्मिक हर्षोल्लासेन सह आमान्यते। इति वार्ताः।